ही धनागम तृष्णा कुरु सद्बुद्धिं मनसि वितृष्णा यल्लभसे निज कर्मोपात्तम् वित्तन्तेन विनोदय चित्तम् मा कुरु जन धन यौवन गर्वम् हरति निमेषात् कालः सर्वम् मायामयमिदमखिलं हित्वा ब्रह्मपदं प्रविशाशु विदित्वा नलिनी दलगत जलमति तरलम् तद्वज्जीवितमतिशय चपलम् क्षणमपि सज्जन संगतिरेका भवति भवार्णवतरणे नौका यावज्जननं तावन्मरणं तावज्जननी जठरे शयनम् इति संसारे स्फुटतर दोषे कथमिव मानव तव संतोषः कामं क्रोधं मोहं लोभं त्यक्त्वात्मानं भावय कोऽहम् यावज्जीवो निवसति देहे तावत् कुशलं पृच्छति गेहे गतवति वायो देहापाये भार्या विभ्यति तस्मिन् काये सुरमन्दिरतरुमूलनिवासः शय्याभूतलमजिनौ वासः सर्वपरिग्रहभोगत्यागः कस्य सुखं न करोति विरागः प्राणायामं प्रत्याहारं नित्यानित्यविवेकविचारं जाप्यसमेतसमाधिविधानं पूर्ववधानं महदवधानं गुरुचरणं सारादचिराद्भवमुक्तः सेन्द्रियमानसनियमादेव द्रक्षसि निजहृदयस्थं देवम् इति श्रीमच्छङ्करा